இது பிரம்ம குரு விஷ்ணு குரு மகேஸ்வரன் குரு சாட்சாத் பரபிரம்ம தஸ்மை ஸ்ரீ குருவை நம்ம சர்வேபியோ நம்ம சர்வேஷாம் ஸ்வாகத்தம் அஸ்மின் நியாயவர்க்கே அஸ்மாக்கம் பிரவர்த்தமான விஷயம் அஸ்தி தத்ர காலோ காலஸ்ய உபாதி நிரூபணம் ஏஷ விஷய வயம் கதவர்க்கே ஆரப்தா அஸ்மாபிஹி ஆரப்தா அஸ்தி ஏஷ விஷய கிந்து புனஹ ஏகவாரம் படித்வா அக்ரே சராமஹ. तरी तत्र अतः तत्र सर्वेषां पुरतः तत्र विद्याधरी पुस्तकं भवेत् अपि तत्र पुटसंख्या अस्ति तत्र षट् पञ्चाशत् इति तत्र कालो कालोपाधि निरूपणम् इति अस्ति. अस्तु तर्हि तत्र अस्तु आरम्भे तत्र धनश्री भगिनी आरम्भं कर्तुम् इच्छति वा?
आं महोदय. कालोपाधिनिरूपणं कालोपाधिनिरूपणप्रसङ्गात् तस्य सर्वाधारत्वं कालसङ्गोचरूपोपाध्यायः कालिकसम्बन्धः निरूप्यते. अनादि अनन्त खलु कालः, तस्य यथावस्थितस्य न व्यवहारो व्यवहारयोग्यता अस्ति. न हि वयं कुतश्चित् प्रभृति आरब्धां शकादिगणान् गणनाम् आधुनिकीं वा ख्रिस्ताब्दगणानां विहाय अयं पूर्वमासीत् अयं तदा आसीत् इति व्यवहार इति व्यवहराम. उन्मत्तस्य वा तथा भाषणेन किञ्चित् अवगच्छाम. अतः परिच्छिन्नः केनचित् पदार्थेन पृथक्कृतः कालः अस्माकं व्यवहारयोग्यः भवति. निदर्शनाय स्वातन्त्र्य उत्तरकालः इति व्यवहारम् आदाय चिन्तयामः. अनेन परमव्यापक कस्यापि कालस्य 1947 प्रभृति 2011 पर्यन्तं किञ्चित् शकलं बुद्धौ आरोहति. विषयम् अनेन सुविशदं निरूपयामः.
अस्तु तर्हि तत्र वाक्यद्वयम् इति तत्र प्रथमवाक्यस्य अर्थः कः इति किञ्चित् वदतु.
अत्र कालनिरूपणप्रसङ्गः अस्ति. अत्र के के विषयाः सन्ति अस्य सर्वाधारत्वं नाम सर्वेषां पदार्थानाम् आधारत्वं काले अस्ति. अनन्तरं कालसङ्कोचक रूपोपाध्यायः, अनन्तरं कालसम्बन्धः कालसम्बन्धश्च नाम विषयत्रयम् अत्र निरूप्यते. हा, कालिकसम्बन्धः विषयत्रयम् अत्र सन्ति.
कालः अग्रे भविष्यति,
अग्रे भविष्यति. अनादि अनन्तः खलु कालः, तस्य आदि नास्ति अन्तमपि नास्ति. तस्य यथा अवस्थितस्य न व्यवहारयोग्यता अस्ति नाम व्यवहारस्य कृते अनादि अनन्त इति अवस्था अस्माभिः न उपयुक्ता. अतः तस्य कुतश्चित् प्रभृति आरब्धां शतकादिगणनाम् आधुनिकी ख्रिस्ताब्दिगणनां
विहाय
अनादि अनन्त यथा तस्य अवस्था अस्ति तादृशी अवस्था
कस्य?
कालस्य अवस्था.
हा, नाम यथावत् नाम यथा कालः अस्ति तथा तस्य
व्यवहारे उपयोगः नास्ति.
उपयोगः नास्ति तथा यथावत् उपयोगः तस्य उपयोगं न कर्तुं शक्नुमः. अतः तत्र योग्यता काले व्यवहारयोग्यः यथावत् तस्य व्यवहारयोग्यता कालस्य नास्ति.
अतः व्यवहारार्थम् अयं पूर्वमासीत् अयम् अनन्तरम् अभवत् इति आवश्यकम्. अतः शकादिगणनाम् अनन्तरं ख्रिस्ताब्दिगणनां तस्य आवश्यकता.
हा, किन्तु किञ्चित् तत्र वदतु तर्हि एकवारं तत्र वाक्यं पुनः पठतु भगिनी.
नहि वयं कुतश्चित् प्रभृति आरब्धां शकादिगणनाम् आधुनिकी वा ख्रिस्ताब्दिगणनां विहाय अयं पूर्वमासीत् अयं तदा आसीत् इति व्यवहराम उन्मत्तस्य वा तथा भाषणेन किञ्चित् अवगच्छाम
नाम तत्र आरब्धं शकादिगणनां शकः इत्युक्ते तत्र
गणना
वर्षः युगः इति तत्र कालस्य मापनेन भागः इति अतः तत्र तादृशगणनाम् अथवा आधुनिकीरीत्यां नाम तत्र क्रिस्ताब्दगणनां विहाय यदि तत्र तादृशगणना नास्ति चेत् किं भवति
कथं पूर्वम् अभवत् कथं कथम् अनन्तरम् अस्य निरूपणं न शक्यम्
हा नाम तत्र इति व्यवहरामः नाम तत्र किन्तु तत्र तद् नास्ति चेत् व्यवहारं कुर्मः वा
क्लिष्टः भवेत् न शक्यते
हा अतः एव तत्र न हि इति अस्ति खलु आदौ तत्र न हि व्यवहरामः न हि व्यवहरामः
सत्यम्
हा इति तत्र अयं पूर्वम् आसीत् अयं तदा आसीत् इति न हि व्यवहरामः यदि तत्र गणना नासीत् गणनां विहाय न हि व्यवहरामः अपि तदनन्तरम्
उन्मत्तस्य वा तथा भाषणेन किञ्चित् अवगच्छामः
हा
उन्मत्तस्य नाम किम्
उन्मत्तस्य नाम यस्य तत्र मनः सम्यक् नास्ति सम्यक् चिन्तनं न करोति उन्मत्तः तस्य भाषणेन किम्
किञ्चित् अवगच्छामः
हा नाम
तत्र... किं वयम् अस्माभिः नाम गणनां विहाय यः भाषणं भवेत् तद् उन्मत्तः भवेत् इति अस्ति किल
समीचीनं नाम तत्र तद् नास्ति चेत् न हि व्यवहरामः अपि न हि किञ्चिदपि
अवगच्छामः
यथा तत्र उन्मत्तस्य भाषणेन तत्र वयं
तत्र
अवगमनं न भवति अस्माकं तथैव अत्रापि न हि अवगच्छामः तत्र गणनां विहाय अतः तत्र गणनायाः आवश्यकता अस्ति नो चेत् तत्र व्यवहारः न भवति
अतः परिच्छिन्नः केनचित् पदार्थेन पृथक् कृतः कालः अस्माकं व्यवहारयोग्यः भवति
परिच्छिन्नः नाम किम्
परिच्छिन्न पदार्थेन पृथक् कृतः नाम तस्य
पदार्थेन पृथक् कृतः परिच्छिन्नः नाम केनचित् पदार्थेन विभागः पृथक् कृतः नाम तस्य भागाः सन्ति नाम इति पृथक् कृतः
निदर्शनाय स्वातन्त्र्योत्तरकालः
एव तादृशः कालः नाम अखण्डकालस्य अखण्डकालस्य तत्र व्यवहारयोग्यता नास्ति किन्तु खण्डशः कालः स्वीकुर्मः तादृशकालः अस्ति चेत् तेन सह वयं व्यवहारं कर्तुं शक्नुमः
निदर्शनाय स्वातन्त्र्योत्तरकालः इति व्यवहारम् आदाय चिन्तयामः नाम अस्य उदाहरणार्थं स्वातन्त्र्योत्तरकालः इत्य कः अर्थः इति वयं चिन्तयामः अनेन परमव्यापकस्यापि कालस्य कश्चित् खण्डः क्रियते परमव्यापकः एव अस्ति काल अनादि अनन्त परन्तु अत्र नाम 47
तः 2011 पर्यन्तं खण्डः
नाम सप्तचत्वारिंशत्यधिक नवशतोत्तर एकसहस्र
प्रभृति इति समीचीनं
ततः एकादशाधिकद्विसहस्रपर्यन्तं किञ्चित् शकलं बुद्धौ आरोहति. शकलं नाम किञ्चित् विभागः, खण्डः,
खण्डः अस्माकं
मनसि
वयम् अस्माभिः अवगम्यते नाम तत्र अस्मिन् वर्षे इति यदि वदामः तत्र गते वर्षे अथवा तत्र पञ्चवर्षः यावत् इति यदि खण्डः अस्ति चेत् तदा वयम् अवगच्छामः. किन्तु तत्र विना खण्डः तत्र अस्माकम् अवगमनं न भवति, व्यवहारः न भवति, बुद्धौ बुद्धौ न आरोहति. किञ्चित् शकलं बुद्धौ आरोहति नाम कालस्य खण्डः एव तत्र तस्य अवगमनमेव वयं कर्तुं शक्नुमः. किन्तु तत्र सम्पूर्णकालस्य अवगमनं अस्माकं नास्ति,
बुद्ध्या कृते न शक्यते,
न शक्यते. अग्रे
विषयम् एनं सुविशदं निरूपयामः. अयमेव
इदं नाम एनं विषयं नाम एतं विषयं
विषयः
सुविशदं नाम सम्यक्तया न श्रूयते भगिनि.
इतोपि
नाम स्पष्टतया विस्तररूपेण निरूपयामः,
विस्तररूपेण
निरूपयामः इति. समीचीनं, धन्यवादः भगिनि. अस्तु,
धन्यवादः.
धन्यवादः. अस्तु, नूतनतया तत्र अस्तु. मूर्तिमहोदय नमस्कारः, चन्द्रमती भगिनी नमस्कारः, जयलक्ष्मी भगिनी नमस्कारः, अपि चन्द्रमती भगिनी नमस्कारः, मृणालिनी भगिनी नमस्कारः, नमस्कारः. अस्तु, अग्रे तर्हि अग्रे सरामः तर्हि तत्र
महोदय, कश्चन प्रश्नः तु नास्ति, केवलं स्पष्टीकरणार्थम् अत्र किम् उच्यते इति चेत् केवलं कालः इति विषयः सर्वाधारः इति भावेन न स्वीकुर्मः, किन्तु कालस्य शकलः इति रूपेण स्वीकुर्मः इति वदति वा अत्र?
न न न न न भगिनि, अस्तु समीचीनं. नाम तत्र इदानीं तत्र
प्रथमवाक्ये
तत्र कालनिरूपण अवसरे अस्मिन् अवसरे वयं किं किं केषां निरूपणं कुर्मः इत्युक्ते कालस्य सर्वाधारत्वम् अस्ति इति निरूपयामः. अपि कालसङ्कोचकरूप उपादयः तेषां निरूपणम् अपि कुर्मः. अपि कालिकसम्बन्धः कः इति अपि निरूपयामः. अतः अग्रे अस्मिन् भागे तत्र विषयत्रयं भवति, तेषां निरूपणं क्रियते अग्रे. एतावत् तत्र सर्वाधारत्वम् इति तस्य विषये निरूपणं न जातं, केवलम् उपादयः अपि तत्र सङ्कोचकरूपम् इत्युक्ते किम् इति तत्र तस्य विवरणम् आरब्धमस्ति. अतः तत्र सर्वाधारत्वम् इति एतावत् तस्य सः विषयः न उद्घाटितः एतावत्. केवलं विषयत्रयम् अग्रे भवति इति उक्तमस्ति तावदेव.
अस्तु,
अन्यः प्रश्नः नाम इदानीं तत्र कालसङ्कोचक इत्युक्ते किम् इति तत्र विवरणं तत्र कुर्वन्तः स्मः, पठन्तः स्मः.
अत्र अन्तिमे उदाहरणार्थं दत्तं खलु, किञ्चित् कालशकलं स्वीकृत्य पठामः इति उक्तं खलु, तदेव तस्य अर्थः भवति वा? विषयमेनं सुविशितं निरूपम् इत्युक्ते
अत्र शकल तत्र कालस्य व्यवहारः केवलं तत्र शकलरूपेण नाम तत्र खण्डशः कालस्य एव तत्र व्यवहारः भवति. केवलं कालस्य खण्डमेव वयम् अवगन्तुं शक्नुमः. अतः तत्र
कालशकलं स्वीकृत्य पठामः, न तु सर्वाधारत्वम् इति.
नै न न सर्वाधारत्वम् इति एतावत् न आगतम्. न केवलं कालः इति अस्ति चेत् तेन सह व्यवहारः न भवति. नाम तत्र सः अस्ति इति यदि वदामः, नाम वर्गः अस्ति इति यदि वदामः, तत्र पूर्णकाले इति अस्ति वा? न खलु. नाम तत्र लकारः अस्ति, लट्लकारः, अतः कालस्य अस्मिन् क्षणे इति भागं स्वीकृत्य एव तत्र व्यवहारः अभवत् खलु. अतः तत्र व्यवहारे कालस्य भागस्य सूचना एव अस्ति, न तु पूर्णकालस्य, सम्पूर्ण अखण्डकालस्य. अतः कालस्य सङ्कोच, तत्र सङ्कोचनम् आवश्यकमस्ति व्यवहारार्थम्. नाम सङ्कोच इत्युक्ते तस्य कालस्य विभजनम् आवश्यकमस्ति.
यदि
कालशकलं, यदि केवलं कालशकलैः एव तत्र व्यवहारः भवति, न तु सम्पूर्ण अखण्डकाल कालेन सह.
अस्तु
अस्तु, समीचीनम्. अस्तु अग्रे तर्हि तत्र
महोदय, शकलम् इति वक्तुं न शक्यते खलु. अखण्डं न, कालः तु अनादि अस्ति. यत्किमपि लघु अस्ति तस्य खण्डनं कर्तुं शक्यते खलु. तर्हि तस्य परिच्छन्नम् इति पदं सम्यक् भासते खलु.
खण्डम् इति एव भगिनि, नाम विभजनं, सङ्कोचनं.
कोऽपि सुनाय न इदेता आचार्य, ऐ काण्ट् हियर्, न शृणोमि.
सर्वेषां कृते एषः एव अस्ति, एषः एव
बहु न्यूनमस्ति शब्दम्.
नास्ति, सम्यक्
श्रूयते महोदय, श्रूयते
सम्यक् श्रूयते.
अस्तु अस्तु अस्तु, हा क्षम्यतां महोदय, मूर्तिमहोदय क्षम्यतां. हा नाम तत्र सङ्कोचनं नाम विभजनं, शकलं नाम कालस्य खण्डः. यद्यपि तत्र कालस्य अवयवाः न सन्ति, किन्तु व्यवहारार्थं कल्पयामः इति. यथा आकाशे, तत्र आकाशस्य, आकाशः एकः एव आसीत् किन्तु तत्र भागं कृत्वा, तत्र भारतदेशे यः आकाशः विद्यमानः अस्ति, अपि अमेरिकादेशे इति, तत्र अस्मिन् हा महोदय, तत्र अहं न जानामि किं करणीयम् इति.
मूर्ति महोदय, एण्ड् सम् प्राब्लम्.
हा अस्तु अस्तु, धन्यवादः महोदय. हा अस्तु तर्हि, अतः तत्र कालस्य शकलम् अस्ति चेत् एव तत्र बुद्धौ आरोहति, नो चेत् न इति अस्ति. अस्तु तर्हि अग्रे तत्र नरसिंह अग्रे महोदय अग्रे पठति वा? नरसिंहमहोदयः अस्ति वा?
अस्मि महोदय.
हा अग्रे पठति वा महोदय?
कुत्र महोदय? कालनिरूपणप्रसङ्गात् कालस्य गणनाय अनेकाः उपायाः, कालस्य गणनायै अनेके उपायाः अस्मत्पूर्वजैः आदृताः. पृथ्वी परितः सूर्यस्य भ्रमणं प्रकल्प्य तत्र अंशानां षष्टाधिकानि त्रीणि शतानि आदाय एकैकांशतुल्यपरिधि विभागं क्रमितुं यः कालः तत्कालमानं भवेत् इति विचारः प्रकल्प्य तत्
महोदय, तत्र भवान् तत्र स्क्रीन् मध्ये यदस्ति पठन् अस्ति वा अथवा पुस्तकं पठन् अस्ति वा?
स्क्रीन् मध्ये महोदय.
अस्तु अस्तु, अतः तत्र उपरि आगच्छामि तर्हि. क्षम्यताम्. अस्तु
महोदय, तत् प्रकल्प्य विचारप्रकान्तः ततः सूर्यादिनैः सूर्यादिनिरपेक्षेण कालज्ञानस्य घटिकायन्त्रस्य सम्बन्ध सलम्बकं घटिकायन्त्रं च आविष्कृतं परन्तु सर्वत्र जलसिकतादिसाधनां न्यूनाधिकभावे मानं स्थिरं न भवति
इति लम्बकेपर्यन्तं इति तावत्पर्यन्तं किञ्चित् वदतु महोदय.
पृथ्वीपरितः महाकाल एकः तस्य गणनं बहु सुलभं नास्ति परन्तु पूर्वजे किं कृतम् इत्युक्ते पृथ्वीपरितः सूर्यस्य भ्रमणं तत् प्रकल्प्य तत् आधारीकृत्य तत्र अंशानां षष्ट्यधिकानि त्रीणि शतानि इत्युक्ते 360 डिवैड् कृत्वा तत्र तम् आदाय एकैकांश तुल्यपरिधिविभागं क्रमितुं यः कालः तत्र एकांशं सूर्यस्य भ्रमणकृते कालः यः कल्प्यते तत् आधारीकृत्य तस्य गणनं पूर्वजे कृतवन्तः तत् कालमानं भवति इति विचारः प्रक्रान्तः ततः
आरब्धः नाम तत्र किमस्ति यथा भवान् उक्तवान् तत्र कालस्य कालः अनन्तः अनादिः तस्य खण्डः एव नास्ति किन्तु तथापि तत्र कालस्य गणनाय नाम तत्र कालस्य मापनार्थं मापनं मेजर्मेण्ट् नाम तत्र तस्य भागः कर्तुं मापनार्थं तत्र पूर्वजैः उपायाः स्वीकृताः इति नाम तत्र अत्र मूलविषयः कः अत्र इत्युक्ते तत्र क्रिया भवति तत्र सूर्यस्य भ्रमणम् इति क्रिया अस्ति क्रिया उपयुज्य कालस्य मापनं भवति इति एकः उपायः स्वीकृतः खलु नाम सूर्यस्य भ्रमणक्रिया नाम तत्र प्रकल्प्य इति अस्ति नाम तत्र पूर्वम् एतदेव चिन्तनमासीत् खलु नाम यद्दृश्यते नाम सूर्यः एव तत्र पृथ्वीं परितः भ्रमणं करोति इति चिन्तनं पूर्वम् आसीत् इदानीं भिन्नमस्ति किन्तु पूर्वं यदस्ति तस्य विचारः तस्य विषयः एव अत्र उक्तः अस्ति अतः तत्र भ्रमणं प्रकल्प्य ते तत्र दिनम् इति तत्र तादृश कालमानं नाम कालस्य गणनां मापनं भागः भवतु इति ते चिन्तितवन्तः नाम तत्र यावत् समयः तत्र सूर्यस्य उदय ततः पुनः सूर्योदयः पर्यन्तं तत्र यावत् कालः तत्र एकदिनम् इति तादृशं मापनं कुर्मः इति ते चिन्तितवन्तः अग्रे तदनन्तरं नाम तत्र एतावत् तत्र सूर्यस्य क्रिया एव आधारः आसीत् कालस्य मापनार्थं
तथा अग्रे किं कृतम् इत्युक्ते तत्र एकं घटिकायन्त्रम् आविष्कृतं तत्र सलम्बकम् इत्युक्ते वित् पेण्डुलं घटिकायन्त्रं च आवश्यकं
यः लम्बते सः सलम्बकं तत्र सलम्बकं सूर्यादि नैरपेक्षेण इत्युक्ते किमस्ति
विदौट् एक्स्पेक्टिङ्ग् सूर्यस् मूमेण्ट्
सूर्यं विना अपि कालस्य ज्ञानं ज्ञानाय तत्र सूर्यं विना अपि कालस्य ज्ञानाय ते घटिकायन्त्रम् इत्यादि तत्र आविष्कृतवन्तः तादृशम्
आविष्कृतं
नाम
आविष्कारं कृतवन्तः
निर्माणं कृतवन्तः यन्त्रस्य निर्माणं कृतवन्तः परन्तु
किम् अस्ति इत्युक्ते अत्र क्रिया लम्बकस्य मूमेण्ट् मूमेण्ट्
लम्बनक्रिया एव तत्र तत्र आधारः अस्ति
परन्तु सर्वत्र किं भवति तत्र जलसिकतादिसाधनमपि तत्र न्यूनाधिकभावः भवति कदापि समय अधिकं भवति कदापि तत्र एतत् क्रिया आधारीकृत्य करोति चेत् तत्र न्यूनं भवति कदापि कदापि अधिकं भवति
तत्र लम्बकरीत्या सम्यक् रीत्या लम्बनक्रियया तत्र सम्यक् रीत्या कालस्य मापनं न कर्तुं शक्यते हा न भवति न शक्यते अस्तु समीचीनं समीचीनं धन्यवादः महोदय अस्तु अग्रे पद्मा भगिनी अग्रे पठति वा
अस्तु लम्बके अपि घर्मकाले वेगन्यूनतया शीतकाले वेग वेगाधिक्या च तावत् अंशानां प्रक्रमाय कदाचित् अधिककालः कदाचित् न्यूनः कालः इति वैषम्यम् अतः आधुनिकैः क्वाड्स् इति रीतिः आविष्कृता तत्र क्रियाणां सन्ततौ सूक्ष्मौ अपि न्यूनाधिकभावः न भवति
इति तावत्पर्यन्तं किञ्चित् वदतु भगिनि
लम्बके अपि तत्र पेण्डुलम् अस्ति चेदपि घर्मकाले ग्रीष्मकाले वेगन्यूनतया वेगः वेगः इत्युक्ते अत्र कालस्य
कालस्य वेगः तु स्थिरः अस्ति
स्थिरः
किन्तु लम्बनक्रियायाः वेगः
ओ लम्बनक्रियायाः वेगः न्यूनता भवति शीतकाले वेगः अधिकः भवति अतः तत्र अस्माकं मापनक्रियायां किञ्चित् अधिककालः कदाचित् भवति कदाचित् न्यूनकालः इति भवति तत्र वैषम्यं भवति विषमता भवति
दोषः भवति नाम दोषः भवति नाम तत्र सम्यक् रीत्या तत्र घटिकायन्त्रस्य यन्त्रं सम्यक् रीत्या कार्यं न करोति
तत्र तुलना सम्यक् न भवति
अत्र अपि किमस्ति वार्ता किमस्ति नाम वार्ता अस्ति तत्र लम्बनक्रियया वयं कालस्य मापनं कर्तुं शक्नुमः यावत् समयः तत्र इतः आरभ्य ततः पर्यन्तं गच्छति खलु तत्र पेण्डुलम् इति तत्र तद्भवति समयस्य खण्डः किन्तु तद् सम्यक् सर्वदा एकः विधः एव न भवति तत्र कालस्य वेगस्य तत्र न्यूनता भवति अथवा अधिकता भवति इति कृत्वा तत्र सम्यक् रीत्या मापनं न भवति
किन्तु दोषः जायेत्
दोषः जायेत् अतः अत्रापि क्रिया एव आधारः अस्ति नाम क्रियया एव तत्र कालस्य मापनं कर्तुं शक्नुमः अतः तत्र एतावत् क्रियाद्वयं दर्शितं कालस्य मापनार्थं तत्र क्रियसमुदायः केवलम् एका क्रिया इति न क्रियायाः समुदायः क्रियासमुदायः यः अस्ति तेन कालस्य मापनं कर्तुं शक्नुमः सूर्यस्य भ्रमणं वा अथवा तत्र घटिकायन्त्रे लम्बनं वा स्वीकृत्य कालस्य मापनं कर्तुं शक्नुमः अग्रे तत्र अतः आधुनिकैः
अतः क्वार्ट्स् इति एक रीतिः नूतनतया आगता
समीचीनं
तत्र तत्रापि क्रिया अस्ति परन्तु तत्र क्रियाणां परम्परायां सूक्ष्मौ अपि तत् सूक्ष्मरीत्या अस्ति चेदपि न्यून अधिक इति भावः भेदः न भवति तोलनं सम्यक् भवति
अतः तत्र तत्र समयस्य मापनं सम्यक् रीत्या भवति तत्र ऋतुः ग्रीष्मऋतुः अथवा अन्यः ऋतुः अस्ति इति कृत्वा तत्र मापनस्य मापने भेदः न भवति दोषः न भवति निर्दोषेण तत्र सम्यक् रीत्या मापनं भवति यत् अतः इति तत्र नूतनरीत्या तत्र कालस्य मापनं कर्तुं शक्नुमः। हा तत्र तत्रापि क्रिया अस्ति, केवलं क्रिया न, क्रियापरम्परा अपि अस्ति, यतोहि तत्र क्वार्ट्स् इति तस्य क्रियया अन्यत् किमपि चलति, सः चलति इति कृत्वा अन्यत् किमपि चलति, तदनन्तरं तत्र निमेषशरः चलति खलु, अतः तत्र अनेके क्रियाः सन्ति, अनेकाः क्रियाः तत्र घटिकायां भवन्ति खलु, अतः क्रियापरम्परा तदा किं भवति, सूक्ष्मम् अस्ति चेदपि तत्र न्यूना अधिका इति तादृशभावः तत्र न भवति, अतः कालस्य मापनं सम्यक् रीत्या भवति इति। हा अस्तु, समीचीनं भगिनि। हा अस्तु, अग्रे तत्र पुष्पा भगिनी अग्रे पठति वा? पुष्पा भगिनी अस्तु, तर्हि तत्र अशोक महोदय अग्रे पठति वा?
अस्तु महोदय, यः अवलोक्यतां पञ्चभिः क्रियाभिः निमिषशरः द्वादशात् बिन्दोः प्रथमं बिन्दुं प्राप्नोति, ताभिः पञ्चभिः क्रियाभिः व्यापकस्य कालस्य सङ्कोचः जातः, ततः प्रथमबिन्दोः द्वितीयबिन्दुं यातुं पञ्चभिः क्रियाभिः तावान् एव कालः सङ्कुचितः भवति, एवमेव अग्रे अपि। एतादृशक्रियासमुदायः तुल्यकालपृथक्कर्ता, पलानि, घटिका, होरा, प्रहरः, दिनं, सप्ताहः, पक्षः, मासः, वत्सरः इति एवं व्यवहारयोग्यः भवति। घटिका चिन्तयामः, घटिकायां निमिषशरः क्षणं निदर्शयति, तद् पञ्चक्षणपरं द्वादश पञ्च पञ्च भाग चलति, अतः पञ्चक्रिया परं एककालं निर्दिशति।
हा तत्र नाम तत्र सङ्ख्या दत्तमस्ति, दत्ता अस्ति खलु महोदय, तत्र द्वादश इति सङ्ख्या अस्ति, उपरि अस्ति, तदनन्तरं तत्र एकं द्वे त्रीणि इति भवन्ति, तत्र निमिषशरः द्वादशः, द्वादश तत्र ततः गच्छति, तदनन्तरं तत्र पञ्च क्षणानन्तरम् एकम् इति यत्र सङ्ख्या अस्ति तावत् तत्र आगच्छति, तत् प्राप्नोति, प्रथमं बिन्दुं प्राप्नोति, अतः तत्र ताभिः पञ्चभिः क्रियाभिः, अत्रापि क्रिया अस्ति, ताभिः क्रियाभिः किम् अभवत्? कालस्य सङ्कोचः नाम विभजनं, नाम तस्य भागः कृतः जातः, सङ्कोचः जातः, तत्र कालः अनन्तः अस्ति, तस्य विभागः कृतः अस्ति पञ्चभिः क्रियाभिः।
कालः एकः एव, किन्तु पञ्च क्रियावत्त्वं विच्छिन्न कालं एक सङ्कोच
इति भागः, इति खण्डः, इति खण्डः कृतः, नाम क्रियायाः आधारेण कालस्य भागस्य व्यवहारं कर्तुं शक्नुमः, नाम क्रिया अत्र इदानीं तस्य क्रिया आरब्धा, एतावत्पर्यन्तं गच्छति क्रिया, इदानीं यावत् समयः यावान् समयः अस्मिन् तत्र अभवत् तद् एकः खण्डः अभवत्. अतः अत्रापि क्रिया एव, क्रियया एव वयं तत्र कालस्य मापनं कुर्मः अत्रापि. अग्रे
तादृश एव एकसङ्ख्या आरभ्य द्विसङ्ख्यापर्यन्तं पञ्च क्रियाः भवन्ति, तदपि एककालस्य भागः.
हा, अपि एककालस्य भागः. अतः तत्र तावानेव कालः सङ्कुचितो भवति. पुनः तत्र प्रथमभागः, तत्र प्रथमभागः नाम तत्र द्वादशात् बिन्दोः प्रथमं बिन्दुं यावत् तदा यदा प्राप्नोति तत्र तत्र भागः तुल्यभागः अस्ति खलु, नाम तत्र पञ्चनिमिषाः अथवा पञ्च सेकेण्ड् इति तत्र यद् यः कालस्य भागः अस्ति सः एव भागः पुनः प्रथमबिन्दु बिन्दोः द्वितीयबिन्दुं पर्यन्तं समानकालः अस्ति खलु.
आं महोदय.
हा, अत एव तत्र तावानेव कालः सङ्कुचितो भवति, एवमेव अग्रे अपि. हा, अग्रे
कालस्य बहु मापनं सन्ति.
हा, बहुविधेन तत्र मापनं कर्तुं शक्नुमः. तत्र एकविधमापनम् इति नास्ति, तत्र अनेकप्रकाराः सन्ति मापने.
होरा अवर् अस्ति मन्ये. प्रहरः त्रीणि होराः प्रायः. दिनम् एकदिनं, सप्तः सप्तदिनं, पक्षः
तत्र पञ्चादश
पञ्चदश दिनानि, मासः त्रिंशत्, वत्सरः षष्ट्यधिक त्रिशतम्
इति. अतः इत्येव
फलानि घटिका कः इति अहं न जानामि. घटिका अस्ति वा?
हा, तत्र अन्य कोऽपि वदेत्, किन्तु तत्र तुल्यकालकृतकर्ता नाम तत्र समानकाल नाम तत्र प्रहर इत्युक्ते तत्र यदा तत्र पञ्चनिमिषाः अथवा पञ्च सेकेण्ड् इति यत् कालस्य भागः आसीत् द्वादशबिन्दोः प्रथमबिन्दुपर्यन्तं, तथैव समानकालः अस्ति खलु प्रथमबिन्दोः द्वितीयबिन्दुपर्यन्तम्. अतः तत्र समानकालरूपेण तत्र स्वीकृतमस्ति, नाम सप्ताहः वा पक्षः. तत्र पक्षः इत्युक्ते प्रथमपक्षः अपि द्वितीयपक्षः समानकालीनः भवन्ति. समानकालीनः न, तत्र तेषां तत्र मापनं समानम् अस्ति, नाम तत्र दीर्घता समाना अस्ति इति तत्र. अतः एतादृश कालस्य खण्डः एव तत्र व्यवहारयोग्यः भवति, न तु अखण्डकालः. अतः तत्र कालस्य सङ्कोचः यदा भवति तदा एव कालेन सह व्यवहारः भवति. अपि सङ्कोचस्य सङ्कोचः केन भवति अथवा कया भवति इत्युक्ते क्रियया कालस्य सङ्कोचः भवति अथवा कालस्य मापनं भवति इति अस्ति. हा, समीचीनं महोदय, धन्यवादः. हा, अस्तु, अग्रे तत्र अस्तु, अग्रे तत्र पद्मा भगिनी पठितवती इति मन्ये. अस्तु, राजीव भगिनी पठितवती वा अथवा पद्मा भगिनी पठितवती पूर्वम्?
अहं पठितवती.
हा, पद्मा भगिनी पठितवती. अस्तु धन्यवादः भगिनि. अस्तु अग्रे तर्हि राजी भगिनी पठितुमिच्छति वा?
आं महोदय, गृहादिः कथं काल उपाधिः भवति? तावान् क्रियासमुदायः च येन अनुभूतः तदा यः आसीत् सः गृहादिः तावत् क्रियासमुदायेन पृथक् कृतः एकस्य वत्सरस्य सम्बन्धी भूत्वा स्वयमपि कालस्य सङ्कोचः भवति. सङ्कोचकः भवति, क्षम्यता. तथा हि एकं गृहं पद्मालय संज्ञकं 1975 वत्सरे उत्पन्नं. ततः प्रभृति 2011 पर्यन्तं 36 वत्सरात्मकक्रियासमुदायाः तद्गृहं च एकस्मिन् काले आसीत् इति पद्मालयस्य 36 वत्सराः इति व्यवहारयोग्यता तद्गृहस्य आगता. पद्मालयस्य निर्माणानन्तरं दशभ्यः वत्सरेभ्यः अनन्तरं शिवालयः इति गृहम् उत्पन्नम् इति उच्यमाने शिवालयः 1985 मध्ये उत्पन्नः इति विद्मः. एवं पद्मालयात् पञ्चभ्यः वत्सरेभ्यः प्राक् शारदालयः उत्पन्नः इत्युक्तौ तस्य कालः 1980 इति अपि विद्मः.
1970 अपि अस्तु. गृहादिः कथं काल उपाधिः? अस्तु, वयम् एतावत् वयं किं दृष्टवन्तः, कालस्य उपाधिः तत्र नाम कालस्य मापनं तत्र क्रियया भवति इति दृष्टवन्तः. इदानीं तत्र गृहादिभिः अपि तत्र कालस्य उपाधिः भवितुम् अर्हति इति उक्तं. हा, इति तत्र कालस्य सङ्कोचकाः भवन्ति इति उक्तं. तर्हि कथम् इति अस्ति. अस्तु, तर्हि प्रथम वाक्यं पठतु भगिनी पुनः.
तावान् क्रिया समुदायः च येन अनुभूतः तदा यः आसीत् सः गृहादिः तावत् क्रियासमुदायेन पृथक् कृतः एकस्य वत्सरस्य सम्बन्धी भूत्वा स्वयमपि कालस्य सङ्कोचकः भवति. वयम् एकं गृहस्य निर्माणं कुर्मः इति चिन्तयामः चेत् तदपि तत्रापि क्रियासमुदायः भवति. वयं तत्र क्रियासमुदायं तत्र वयम् अवगच्छामः. तदा यः आसीत् इति वयं कश्चित् गृहस्य वयं सूचनां वदामः चेत् अपि
न भगिनि, अत्र गृहमेव तत्र अत्र इष्टः, अतः तत्र तत्र क्रियसमुदायः. अतः किं कुर्मः तत्र, तथा हि इति तत्र उदाहरणं दृष्ट्वा पुनः एतद् वाक्यं पठामः तर्हि.
तथापि एकं गृहं पद्मालयसंज्ञकं 1975 वत्सरे उत्पन्नं. सो एकं गृहम् अस्ति, तस्य नाम पद्मालयम् इति नाम. तत् गृहं 1975 वत्सरे उत्पन्नं भवति इति वयं प्रथमं कल्पनां कुर्मः.
तस्य निर्माणं तस्मिन् वत्सरे अभवत्.
तस्य निर्माणं ततः प्रति 2011 पर्यन्तं 36 वत्सरात्मकक्रियासमुदायाः तद्गृहं च एकस्मिन् काले आसीत् इति पद्मालयस्य 36 वत्सराः इति व्यवहारयोग्यता तद्गृहस्य आगता.
हा, इति इदानीं वदतु तर्हि तत्र
1975 आरभ्य 2011 पर्यन्तं 36 वत्सराः मध्ये भवन्ति. सो तत्र तावत् समयपर्यन्तं तत्र क्रियासमुदायाः अपि तस्मिन् गृहे भवति इति.
क्रियासमुदायः इत्युक्ते अत्र किमस्ति? क्रियासमुदायः नाम तत्र क्रियासमुदायः अत्र किमस्ति? येन वयं कालस्य मापनं कुर्मः, नाम तत्र सूर्यस्य भ्रमणं स्वीकृत्य तत्र वयं तत्र एकवर्षस्य कल्पनां कर्तुं शक्नुमः खलु. अपि तत्र सूर्योदयस्य तत्र तादृश उपयोगेन वयम् एकदिनस्य कल्पनां कर्तुं शक्नुमः. अपि तत्र निमिषशरस्य क्रिया तत्र पञ्चनिमेषाः अथवा एकप्रहरः इति एतादृशकल्पनां कर्तुं शक्नुमः. अतः तत्र क्रियासमुदायाः, अत्र क्रियासमुदायः किम् इति तत्र फुट्नोट् अस्ति. तत्र किम् अस्ति अत्र क्रियासमुदायः?
क्रियासमुदायः वत्सरः,
वत्सरः इति स्वीकृतं नाम तत्र येन क्रियया, यया क्रियया तत्र संवत्सरस्य मा इति मानं भवति, कालस्य मानं भवति. तं स्वीकृत्य नाम तत्र सूर्यस्य भ्रमणं तत्र पृथ्वीं परितः सूर्यस्य भ्रमणम् अथवा नूतनरीत्या तत्र पृथिव्याः भ्रमणं सूर्यं परितः यत् भवति तं स्वीकृत्य वयं भ्रमणक्रिया स्वीकृत्य वयं तत्र एकः वर्षः जातः इति वक्तुं शक्नुमः खलु. अतः तत्र तादृश तत्र वत्सरात्मकक्रियसमुदायाः तद्गृहं च सा क्रिया तत्र भ्रमणक्रिया अपि गृहम् एकस्मिन् काले आसीत् खलु. खलु तत्र पूर्वं तत्र 1975 पूर्वं भ्रमणक्रिया आसीत् किन्तु गृहं नासीत्. किन्तु तदनन्तरं किम् अभवत्? गृहमपि अस्ति, भ्रमणक्रिया अपि अस्ति. भ्रमणक्रियया तत्र वत्सर इति सञ्ज्ञकं कालं कालः कालस्य तत्र विभजनं कृतम्. अतः तत्र गमनक्रिया अपि अस्ति, अपि गृहमपि अस्ति, एकस्मिन् काले द्वयमपि अस्ति खलु. अतः क्रिया अस्ति अपि गृहमपि अस्ति. कियत् कालं? तत्र षट्त्रिंशत् वत्सरात्मकक्रियासमुदायः तद्गृहं च एकस्मिन् काले आसीत् इति कृत्वा वयं किम् अस्माकं व्यवहारः किं भवति पद्मालयस्य
षट्त्रिंशत् वत्सराः
इति अस्माकं व्यवहारः भवति खलु. अतः तत्र तादृशव्यवहारयोग्यता गृहस्य आगता अस्ति खलु. तदा एव तत्र योग्यता नाम तत्र कालेन सह कदा व्यवहारं कर्तुं शक्नुमः? यदि कालस्य विभजनं सङ्कोचकं किमपि भवेत्
तदेव व्यवहारयोग्यता
भवति. इदानीं किम् अभवत्? तत्र गृहस्य निर्माणं जातं, तदनन्तरं तत्र षट्त्रिंशत् वत्सराः गताः इति तत्र तत् कथम् उक्तम् अत्र अस्ति नाम क्रियासमुदायः अपि गृहम् एकस्मिन् समये आसन् इति कृत्वा तत्र व्यवहारयोग्यता आगता गृहस्य.
अस्तु जि. सो अतः वयं सूर्यस्य भ्रमणं पृथक्तया वयं पश्यामः, अनन्तरं गृहस्य निर्माणम्. इदानीं वयं द्वयोः तोलनम् अथवा
नाम तत्र गृहस्य निर्माणम् अभवत्, इदानीं सूर्यस्य भ्रमणमपि अस्ति, गृहमपि अस्ति, द्वयमपि अस्ति. एकवर्षानन्तरं ओ द्वयमपि अस्ति, द्वयमपि अस्ति, द्वयमपि अस्ति, ओ एकवर्षः जातः, द्वयमपि अस्ति द्वयम् इति. अतः तत्र तेन तत्र किम् अभवत्? तत्र गृहस्य योग्यता आगता नाम व्यवहारयोग्यता. एषः एतद् गृहम् एकवर्ष तत्र वत्सरः इति तादृश व्यवहारः कर्तुं शक्नुमः.
अनन्तरं दशभ्यः वर्षेभ्यः अनन्तरं शिवालयः इति गृहम् उत्पन्नम् इति उच्यमाने शिवालय वयं इतोपि अन्यः अन्यं गृहं वयम् इदानीं चिन्तयामः, तस्य नाम शिवालयः इति. पद्मालयस्य तद् प्रथमगृहस्य निर्माण अनन्तरं दशभ्यः वर्षेभ्यः अनन्तरं शिवालयः इति गृहम् उत्पन्नं भवति.
नाम तत्र शिवालयः दशभ्यः वत्सरेभ्यः अनन्तरं शिवालयः इति गृहम् उत्पन्नम् इति उच्यमाने उच्यमाने इत्युक्ते किम् अत्र उच्यमाने नाम सतिसप्तमी उच्यमानः अस्ति यदा उच्यमानः
शिवालयः
किम् अवगच्छामः शिवालयः संवत्सरे अथवा अस्मिन् मध्ये उत्पन्नः इति विद्मः इति विद्मः नाम
जानीमः इति
जानीमः अथवा तत्र यदि तत्र उच्यते नाम तत्र दशभ्यः वत्सरेभ्यः अनन्तरं शिवालयः शिवालयस्य उत्पन्नम् इति यदि उच्यते तदा वयम् अवगच्छामः अस्तु एतस्य उत्पन्नः अस्मिन् संवत्सरे अभवत् इति
एवं पद्मालयात् पञ्चभ्यः वत्सरेभ्यः प्राक् शारदालयः उत्पन्नः इत्युक्तौ तस्य कालः 1970 इत्यपि वयं विद्मः तस्य वर्षं वयं संवत्सरं वयं किञ्चित् गणनां कुर्मः पञ्चवर्षाणि अन्यं
इति जानीमः अतः तत्र किम् अभवत् तत्र गृहं गृहस्य उत्पत्ति अथवा निर्माणं यदा अभवत् अथवा निर्माणं स्वीकृत्य वयं कालस्य तत्र मापनं कृतवन्तः खलु तत्र विभजनं कृतवन्तः खलु खलु अत्र सर्वत्र व्यवहारः शिवालयस्य निर्माणम् उपयुज्य कालस्य मापनव्यवहारः अस्ति खलु अत्र अतः तत्र किम् अभवत् गृहमपि कालस्य उपाधिः नाम कालस्य सङ्कोचकः अभवत् खलु तर्हि केवलं क्रिया इति न किन्तु साक्षात् गृहमेव तत्र कालस्य मापनस्य प्रतिनिधिः अभवत् नाम तत्र प्रतिनिधिरूपेण तत्र गृहमपि कालविभजनस्य उपाधिः अभवत् यतोहि तत्र गृहस्य आधारेण गृहस्य निर्माणस्य आधारेण वयं कालस्य मापनं कालस्य विभजनं कालस्य सङ्कोचनं कर्तुं शक्नुमः
मम एकः सन्देहः इदानीं वयं प्रत्येकं वस्तुमपि एतादृशं वक्तुं शक्यते किल
अतः एव तत्र गृहादिः इति अस्ति समीचीनं भगिनि समीचीनं समीचीनं एषः एव विषयः अग्रे आयाति भगिनि समीचीनम् उत्तमः समीचीनं तत्र अतः एव गृहादि इति अस्ति उदाहरणार्थं तत्र गृहम् इति स्वीकृतमस्ति समीचीनं भगिनि अस्तु इदानीं
चेत् वयं साक्षात् किमपि कार्यम् इति अत्र न स्वीकुर्मः किल अत्र संवत्सरः इति अस्मिन् सन्दर्भे स्वीकृतमस्ति किल क्रियासमुदायः चेत् वयं मनसि किम् आगच्छति चेत् किमपि कार्यं चलति अथवा किमपि
किन्तु क्रियासमुदायः तत्र नाम अत्र अस्ति भ्रमणक्रिया भ्रमणक्रियया तत्र कालस्य मापनं जातं किन्तु गृहमपि क्रिया द्वयमपि आसीत् इति कृत्वा गृहमपि तत्र क्रियायाः प्रतिनिधिः भवति क्रियया तत्र कालस्य मापनं भवति अतः गृहमपि कालस्य सङ्कोचकः भवति गृहस्य निर्माणम् इति न किन्तु गृहस्य निर्माणक्रिया इति नास्ति केवलं गृहं जातम् इति एव तत्र मुख्यांशः
गृहस्य उपस्थितिः यावत् कालं भवति तदेव
इति तत्र अतः इदानीम् आरभ्य गृहस्य उपस्थितिः अस्ति इति
अस्ति
इत्येव तत्र इति एव विषयः तत्र गृहस्य निर्माणक्रिया इति तस्य महत्वं नास्ति तदपि भवितुमर्हति किन्तु तद् भिन्नमस्ति
तद् अस्मिन् सन्दर्भे न उचितं
नास्ति नास्ति समीचीनं वा भगिनि अस्तु धन्यवादः किन्तु तत्र यदा भवती उक्तवती प्रश्नः नाम तत्र केवलं गृहं किमर्थम् अन्येनापि भवितुमर्हति एषः विषयः अग्रे आयाति. अस्तु, समीचीनम्. अस्तु, अग्रे तत्र तत्र मृणालिनी भगिनी अस्ति वा? अस्तु भगिनि, तर्हि तत्र प्रथमवाक्यं पुनः एकवारं पठित्वा किञ्चित् विवृणोतु भगिनि.
प्रथमं वा, तावत् क्रियासमुदायश्च येन अनुभूतः तदा यः आसीत् इति गृहादिः तावत् क्रियासमुदायेन पृथक् कृतः एकस्य वत्सरस्य सम्बन्धी भूत्वा स्वयमपि कालस्य सङ्कोचकः भवति. तर्हि अत्र वयं संवत्सर एकं वर्षं स्वीकुर्मः कालस्य पृथक्करणार्थं. तर्हि येन अनुभूतः तदा यः आसीत् इति वाक्यं गृहादिः तावत् क्रियासमुदायेन पृथक् कृतः. तर्हि यथा वयं वदामः एकं गृहं पद्मालयसंज्ञकं पञ्चसप्तति उत्तर नवदश शतानि वर्षेभ्यः आसन् इति. तर्हि अत्र तथा आरभ्य केवलं संवत्सर इति कालसमुदायं स्वीकृत्य पृथक्करणं कुर्मः. यथा ततः प्रभृति एकादश उत्तरद्विसहस्रवर्षे वर्षपर्यन्तं षट्त्रिंशत् वत्सरात्मक क्रियासमुदायः कस्य आसीत्
भगिनि? अतः तत्र चिन्तयतु, तत्र एषा सङ्ख्या अस्ति खलु, तत्र अस्मिन् संवत्सरे अस्मिन् इदानीं तत्र पद्मालयम् इति, पद्मालयं नाम गृहस्य निर्माणम् इदानीं जातम् इति चिन्तयतु. गृहमस्ति, गृहस्य निर्माणम् इदानीं कृतम्. अस्तु, तदनन्तरम् एकवर्षः गतः, इदानीम् एकवर्षः गतः. गतवर्षे एकवर्षं पूर्वम् एतस्य गृहस्य निर्माणम् अभवत्. इदानीं तत्र गृहमस्ति, अपि तत्र क्रियासमुदायः अपि अस्ति खलु, नाम एकवर्षः इति अथवा एकसंवत्सर इति यदि वदामः, तावत्पर्यन्तं तत्र तस्मिन् समये तत्र क्रियासमुदायः, अत्र क्रियासमुदाये मुख्यम् अस्ति नाम तत्र भ्रमणक्रिया, तत्र नाम सूर्यस्य भ्रमणक्रिया वा अथवा पृथिव्याः भ्रमणक्रिया अस्ति खलु, येन वयं संवत्सरस्य मापनं कृतवन्तः खलु. सा क्रिया अभवत् खलु, सा क्रिया
सर्वं क्रिया, सर्वाः क्रियाः समाप्तः.
हा, किन्तु तस्मिन् समये क्रियासमुदायः आसन्, समुदायः आसीत्, अपि समुदायः येन अनुभूतः, सः समुदायः येन अनुभूतः, केन अनुभूतः एषः क्रियासमुदायः? गृहेण, यतोहि गृहमासीत्, गृहं तद् तस्मिन् क्षणे आसीत्. यदि तत्र भ्रमणं चलत् आसीत् खलु, अतः तत्र गृहं तत्र अनुभूतं, तत्र येन अनुभूतः नाम गृहेण अनुभूतः अस्ति एषः समुदायः, नाम तदा यः आसीत् अनुभूतः, तदा यः आसीत् नाम गृहं यत् आसीत् तस्मिन् क्षणे अथवा तस्मिन् कालस्य अवधिः अस्ति खलु, नाम एकः संवत्सर कालस्य अवधिः अस्ति, तस्यां तस्मिन् भागे यः आसीत् नाम गृहम् आसीत्, तद् गृहमपि किं भवति, तावत् क्रियासमुदायेन पृथक् कृतः एकस्य वत्सरस्य सम्बन्धी अस्ति खलु. क्रियया एकः संवत्सरः इति भागः कृतः खलु, क्रियया कालस्य मापनं कृतम् एकः संवत्सरः इति. तस्य संवत्सरस्य सम्बन्धी नाम गृहमपि संवत्सरस्य तत्र तत्र संवत्सरः इति अथवा वत्सरः इति तत्र तयोः मध्ये सम्बन्धः अस्ति खलु, यतोहि तत्र गृहमपि आसीत्, क्रियापि आसीत् अस्मिन् भागे, अस्मिन् काले संवत्सरे, अतः वत्सरस्य सम्बन्धि भवति गृहं खलु. अतः सम्बन्धि भूत्वा गृहं सम्बन्धि एकस्य वत्सरस्य सम्बन्धि भूत्वा नाम तत्र प्रतिनिधिः, प्रतिनिधिः भूत्वा स्वयमपि नाम गृहं स्वयमेव कालस्य सङ्कोचकं भवति. नाम कालस्य मापनं गृहेण एव अपि कर्तुं शक्नुमः, यतोहि यावत्पर्यन्तं तत्र गृहं गतवर्षे तस्य निर्माणं जातम् इत्युक्ते एकसंवत्सर एकवर्षः जातः इति तेन वयं वक्तुं शक्नुमः. अतः गृहमपि कालस्य सङ्कोचकं भवति खलु.
स्वयमपि कालस्य सङ्कोचकः
भवति खलु. अस्तु, समीचीनम्. अस्तु, तत्र अन्य कोऽपि वदेत् तत्र यत् अवगतम् इति, तर्हि तत्र सुधा भगिनी किञ्चित् वदति वा तत्र अस्मिन् परिच्छेदे किमस्ति इति तत्र सारांशत्वेन किञ्चित् वदति वा
महोदय. पठित्वा वदनीयं वा
अथवा यदि यत् अवगतवती तत् किञ्चित् वदतु, तदनन्तरं यदि आवश्यकता अस्ति चेत् किञ्चित् पठतु तर्हि.
अत्र क्रियासमुदायश्च येन अनुभूतः अस्ति तद् अनुभूतः इत्युक्ते येन इत्युक्ते तत्र गृहविषये.
भगिनि एतत् कुर्मः, भगिनि एतत् कुर्मः, तत्र एकवारं तत्र उदाहरणस्य विवरणं करोतु तर्हि. तत्र पद्मालय पद्मालयम् इति गृहं
नाम एकं गृहं 1975 वत्सरे निर्माणसमये क्रियासमुदायः अस्ति.
तत् निर्माणसमये इति नास्ति, निर्माणसमये इति नास्ति
नास्ति
तत्र अत्र कालस्य एषः भागः अस्ति खलु, दृश्यते खलु भगिनि.
आम् आम्.
हा, एषः कालस्य भागः अस्ति. तत्र षट्त्रिंशत् वत्सराः सन्ति खलु, तत्र षट्त्रिंशत् वत्सरात्मक इदानीं वत्सरात्मकक्रियासमुदायाः, क्रियासमुदायः नाम तत्र एकस्मिन् संवत्सरे तत्र भ्रमणक्रिया अस्ति, नाम पृथिव्याः अथवा सूर्यस्य भ्रमणक्रिया खलु. हा, तया क्रियया वयम् एकः संवत्सरः अभवत् इति वदामः, व्यवहरामः खलु. अतः तत्र गृहमपि इतः परं गृहमपि अस्ति, क्रिया अपि अस्ति खलु. 1980 मध्ये गृहम् अस्ति वा? अस्ति. क्रिया अपि अस्ति वा? भ्रमणक्रिया अपि अस्ति वा? अस्ति. एतावत्पर्यन्तं तस्य अनन्तरमपि अस्ति, किन्तु वयम् एतावत् एव दृश्यामः, 2011 तावत्पर्यन्तं दृश्यामः. तर्हि तावत्पर्यन्तं गृहमपि अस्ति, क्रिया अपि अस्ति खलु. अतः तत्र क्रिया अस्ति, गृहमपि अस्ति. इदानीं तत्र क्रिया भ्रमणक्रिया एव, तत्र भ्रमणक्रिया इति एव क्रियासमुदायः, यतोहि तेनैव तत्र संवत्सरस्य ज्ञानं भवति. अस्तु, इदानीं तावान् क्रियासमुदायः च
येन अनुभूतः.
येन अनुभूतः इत्युक्ते
अनुभूतः
गृहेण गृहेण अनुभूतः अस्ति समुदायः क्रियासमुदायः गृहेण अनुभूतः नाम गृहं समुदायम् अनुभवति खलु अतः तत्र गृहेण अनुभूतः अस्ति एषः समुदायः तदा
तदा
किं भवति
तदा यः आसीत् यः
अत्र यः अस्ति यः आसीत् गृहम् आसीत्
गृहम् आसीत् सः गृहादिः तावत् क्रियासमुदायेन पृथक् कृतः
न न तावत् समुदायेन तावत् क्रियासमुदायेन पृथक् कृतः एकस्य वत्सरस्य
सम्बन्धी भवति
खलु यतोहि गृहं गृहम् अपि एतस्य कालस्य भागस्य मध्ये सम्बन्धः अस्ति खलु
आम् अस्ति आम्
हा अतः एव तत्र वत्सरस्य एकस्य अत्र एकस्य वत्सरः इति कृतं किन्तु उदाहरणे तत्र षट्त्रिंशत् वत्सराः सन्ति किन्तु अतः तत्र तादृशवत्सरस्य अथवा वत्सरस्य सम्बन्धी गृहं भवति खलु अस्मिन् उदाहरणे
एकस्य वर्षस्य अनुभवं तत् गृहेण भवति इति कृत्वा
गृहं सम्बन्धी भवति वत्सरस्य सम्बन्धी भवति यतोहि गृहेण क्रियासमुदायः अनुभूतः अस्ति अतः तत्र भूत्वा भवति इदानीम् अभवत्
कालस्य सङ्कोचः भवति इति वयं ज्ञातुं शक्नुमः
स्वयमपि नाम गृहं
स्वयमेव
गृहं स्वयमेव कालस्य सङ्कोचकः नाम कालस्य विभजनं गृहेण एव कालस्य विभजनं कर्तुं शक्नुमः इति अस्ति अस्तु समीचीनं तर्हि तत्र उषा भगिनी स्वशब्दैः वदति वा तत्र
सूर्यस्य भ्रमणम् इति कालस्य मापनस्य उदाहरणं सूर्यस्य भ्रमणम् अत्र गृहादिः कथं कालस्य उपाधिः भवति इत्यस्य विषये कृते गृहम् अपि 1975 इति वर्षस्य निर्माणं भवति चेत् फ्रम् देट् टु 2011 अस्ति चेत् गृहमपि सम्बन्धं भवति सूर्यस्य भ्रमणस्य सम्बन्धं भवति
सम्बन्धी भवति यत् नाम तत्र तयोः मध्ये सम्बन्धः अस्ति कः सम्बन्धः इत्युक्ते सम्बन्धः कः नाम क्रियासमुदायः गृहेण अनुभूतः खलु नाम तत्र संवत्सरं यावत् आसीत् तस्मिन् समये भ्रमणक्रिया यदस्ति सूर्योदयः सूर्य अस्तमः एतत् सर्वं गृहेण अनुभूतं खलु सम्बन्धी अस्ति गृहम् अतः
गृहं
न वत्सरस्य सम्बन्धी भवति वत्सरस्य सम्बन्धी भवति हा इति नाम तत्र क्रियया एव वयम् एतावत् कालस्य मापनं भवति इति चिन्तितवन्तः किन्तु येन क्रिया तत्र सः अपि तत्र स्वयं कालस्य सङ्कोचकः भवितुम् अर्हति उदाहरणार्थं गृहम् इति अस्तु समीचीनम् अस्तु धन्यवादः भगिनी अस्तु अग्रे तत्र नीता भगिनी अग्रे पठति वा तत्र स्क्रीन् मध्ये पठति वा अथवा पुस्तकं दृष्ट्वा पठति वा
मम पुरतः पुस्तकमस्ति
अस्तु 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 समीचीनं अस्तु अग्रे
एवञ्च क्रियाभिः सङ्गतं वस्तु पद्मालयम् आदाय तत्पूर्वं ततः पश्चात् इत्यादयः व्यवहाराः प्रवर्तन्ते अतः एते पदार्थाः कालस्य सङ्कोचकाः कालोपाधयः इति शास्त्रे व्यवह्रियन्ते. अत्र अग्रे पठामि वा?
एतत् पठित्वा अग्रिमपुटं गच्छतु.
अत्र यत् वयं अत्र दृष्टवन्तः तत् क्रियायाः पृथिव्याः भ्रमणं वा अन्ये क्रियायाः क्रियाभिः सङ्गतं वस्तुपद्मालयम् आदाय तत् भ्रमणं यदि क्रिया इति स्वीकृत्य वयं पश्यामः चेत् 1975 पूर्वे गृहं नास्ति. अनन्तरं तत्र 1975 अनन्तरं तत्र भ्रमणं क्रिया अपि अस्ति, गृहम् अपि अस्ति. तत् वस्तु गृहम् इति गृहेण क्रियासमुदायः अनुभूतः अस्ति. तत् वस्तु इति स्वीकृत्य यदि पद्मालय इति गृहस्य नाम, तत् पद्मालयम् आदाय तत्पूर्वं ततः पश्चात् पद्मालयस्य उपस्थिति पूर्वं वा पद्मालयस्य उपस्थिति अनन्तरं ततः पश्चात् इत्यादयः व्यवहाराः प्रवर्तन्ते. तादृशी
नाम समीचीनं समीचीनं नाम तत्र पद्मालयस्य अनन्तरं तत्र शिवालयः अथवा पद्मालयस्य पूर्वं शारदालयः उत्पन्नः इति तत्र एतादृशव्यवहारः अस्माकं भवति. समीचीनं भगिनि. तत्र क्रियाभिः सङ्गतम् इति तत्र किञ्चित् विवृणतु, तत्र किमस्ति?
क्रियाभिः सङ्गतम् इत्युक्ते
सङ्गतं वस्तु, सङ्गतं वस्तु,
तत्र गृहेण एव क्रियासमुदाय अनुभूतः. क्रिया इत्युक्ते यदि संवत्सरे पृथिव्याः भ्रमणं यदि वयं
स्वीकुर्मः,
गृहेण एव तस्य अनुभूत्वा यत् सूर्यस्य उदयः जातः, सूर्यस्य अस्तः जातः वा संवत्सरः अभवत्, एकः संवत्सरः अभवत्, एतानि क्रियाणि अनुभूतानि गृहेण एव
इति अस्ति. नाम सङ्गतम् इत्युक्ते किम् अस्ति?
सङ्गतं गृह उपस्थिति इति.
सङ्गतं नाम समानकाले, नाम
समान
क्रियाभिः सङ्गतं वस्तु. वस्तु नाम क्रिया अपि अस्ति, क्रियया सह एतद् वस्तु अस्ति. नाम क्रिया अपि अस्ति, तया सह वस्तु अपि अस्ति. नाम गृहम् अस्ति, भ्रमणक्रिया अपि अस्ति. अतः तत्र समान सङ्गच्छति नाम क्रियापि अग्रे गच्छति, गृहमपि गृहस्य अस्तित्वमपि अग्रे गच्छति. अतः तत्र सङ्गतं वस्तु, क्रियाभिः सङ्गतं वस्तु नाम पद्मालयं तादृशम् आदाय यत् तत्र उदाहरणे आसीत् नाम 1975. तदनन्तरं तत्र क्रियापि अस्ति, भ्रमणक्रिया यथा भवती उक्तवती, भ्रमणक्रिया अपि अस्ति, गृहमपि अस्ति. अतः सङ्गतं नाम तत्र यथा तत्र गृहमपि अस्ति, क्रिया अपि अस्ति, सङ्गच्छतः.
अतः तत्र दत्तमस्ति गृहादिः कथं काल उपाधिः भवति इति. एते पदार्थाः अपि कालस्य सङ्कोचकः, कालस्य उपाधिः एवं स्वीकृत्य शास्त्रे व्यवहारं कर्तुं शक्नुमः इति.
न शास्त्रे व्यवहारं कुर्वन्ति नाम सङ्कोचकः इति एव अर्थः अस्ति. कालस्य उपादयः इत्युक्ते कालस्य सङ्कोचकाः. अतः एते पदार्थाः नाम गृहम् इत्यादयः पदार्थाः एव तत्र कालस्य उपादयः, कालोपादयः भवितुम् अर्हन्ति इति तत्र शास्त्रे एतादृशव्यवहारः दृश्यते. व्यवहारः दृश्यते. अस्तु, समीचीनम्. अस्तु, अग्रे अपि तत्र वाक्यद्वयम् अग्रे अपि पठतु, तदनन्तरम् अन्य कोऽपि पठति.
तत्रापि अयं विशेषः यः कदाचित् उत्पत्स्यमानः काश्चन क्रियाः अनुभवेत् सः एव भवति कालस्य सङ्कोचकः.
इति तावत् किञ्चित् वदतु, तर्हि किमस्ति?
तत्रापि अयं विशेषः यः कदाचित् उत्पच्यमानः काश्चन क्रियाः अनुभवेत् सः एव भवति कालस्य सङ्कोचकम् तत्र कालस्य सङ्कोचकः वा कालस्य उपाधिः कः भवेत् इति
अस्ति
यः तस्मिन् समये एव यत् समानकाले एव
तत्र यः कदाचित् उत्पत्स्यमानः इत्युक्ते
यः तस्मिन् समये एव
कदाचित् इत्युक्ते इदानीम् इति नास्ति कदाचित् तम न जानीमः किन्तु कस्मिन् समये कस्मिंश्चित् समये खलु कदाचित् इत्युक्ते कस्मिंश्चित् समये उत्पत्स्यमानः नाम तस्य जन्म भवति उत्पत्तिः भवति जन्म भवति यस्य जन्म कदाचित् भवति
सः एव कालस्य सङ्कोचकः वा कालस्य उपाधि भवेत्
वा सः एव क्रियाः अनुभवेत् तत्र क्रियाः अनुभवेत् इति क्रियाः इति पदस्य विभक्ति का तत्र
क्रियाः षष्ठ्यन्तं
न क्रियाः इति विभक्ति बहुवचनमस्ति किन्तु तत्र विभक्ति किन्तु अनुभवेत् इति अस्ति सः एव अनुभवेत् द्वितीय यतोहि तत्र लता इति आकारान्तपदे बहुवचने समानरूपम् अस्ति अतः तत्र क्रियाः काश्चन क्रियाः काश्चन तत्र अपि दृश्यते नाम तत्र क्रियः अनुभवेत् सः एव यः कदाचित् उत्पत्स्यमानः अस्ति अपि काश्चन क्रियः अनुभवेत् सः एव भवति कालस्य सङ्कोचः नाम तत्र आकाशः तत्र तस्य कदाचित् कस्मिंश्चित् समये तस्य उत्पत्तिः अभवत् वा आकाशस्य न खलु अतः तत्र नित्यपदार्थः अस्ति अतः तत्र आकाशः कालस्य सङ्कोचकः भवितुमर्हति वा न भवितुमर्हति नाम यदि तत्र एषः पुरुषः अस्मिन् वर्षे तस्य जन्म अभवत् इति वदामः अतः तत्र किं कर्तुं शक्नुमः अस्तु निर्माण अनन्तरं निर्माणात् पूर्वम् इति तत्र कालस्य सङ्कोचनम् अभवत् खलु अतः यस्य उत्पत्तिः नाम जन्म अस्ति तत्र पदार्थः वा पुरुषः वा महिला वा किमपि गृहं वा यत्किमपि वस्तु भवेत् किन्तु यस्य जन्म उत्पत्तिः भवेत् तस्तेन एव तत्र कालस्य मापनं सङ्कोचनं कर्तुं शक्नुमः इति अस्ति खलु अस्तु समीचीनं अस्तु इदानीम् अग्रे तत्र धन्यवादः भगिनि अस्तु अग्रे तत्र धन्यवादः भगिनि अस्तु अग्रे तत्र तावत् चन्द्रमती भगिनी किञ्चित् पठति वा अग्रे
न तु कालतुल्य एव उत्पत्तिविनाशरहितः परमाणवाकाशादि अतः जन्यस्यैव कालसङ्कोचकत्वात् सिद्धः नियमः जन्यानामेव कालोपाधित्वम् इति न तु कालतुल्यः एव उत्पत्तिविनाशरहितः परमाणव आकाशादिति आकाशः तत्र अनन्तम् आकाशः अनन्तम् अस्ति नित्यमस्ति तादृशमेव कालः अपि नित्यं
नाम तत्र उत्पत्तिविनाशरहितः इत्युक्ते किम् अस्ति
आदिः नास्ति अन्तम् अपि अस्ति नास्ति सर्वदा तद् उत्पत्तिः नास्ति विनाशमपि नास्ति नित्यमेव
नित्यपदार्थः परमाणु
पालः अपि तादृश अस्ति परमाणु परमाणव आकाश आदिः काल आकाशस्य परमाणः नित्यपरमाणः
आकाशस्य परमाणवः न सन्ति आकाशस्य आकाशः एकः एव खलु
एकः एव
नाम पार्थिवपरमाणवः अथवा जलपरमाणवः इति तत्र नित्यपदार्थाः सन्ति आकाशः कालः अपि तत्र नित्यपदार्थः खलु
कालः अपि नित्यपदार्थः एव अतः
तत्र न तु इत्युक्ते न इति किमर्थं ते किं न भवन्ति
पूर्वे कालस्य पूर्वस्मिन् अध्याये वाचके कालस्य सङ्कुचितत्वविषयं वयं चर्चां कथं सङ्कोचं कर्तुं शक्नुमः इति अत्र उक्तम् अस्ति किन्तु कालः नित्यः एव तत् आकाशसमानं अनन्तरं कथं
भगिनि भगिनि एकनिमिष भगिनि नाम तत्र पूर्वस्मिन् वाक्ये यत् वाक्यं तत्र नीता भगिनी पठितवती
कदाचित्
उत्पत्स्यमानः
कश्चन क्रिया अनुभवेद् सः एव भवति कालस्य सङ्कोचः काले अत्र गृहम् अस्ति एकस्मिन् काले
निर्माणं गृहं नित्यं नास्ति खलु गृहस्य निर्माणं
नास्ति अनित्यं
निश्चित समये अभवत्
तदत्र भवति
तत् अत्र निर्माणं कस्मिंश्चित् समये अभवत् इति स्वीकृत्य एव वयं तत्र काल गृहं कालसङ्कोचकम् इति वदामः खलु
अस्तु
खलु तेनैव तत्र एतस्य गृहस्य निर्माणात् प्राक् एतत् गृहम् आसीत् गृहस्य निर्माणात् अनन्तरम् एतत् गृहं कृतम् इति व्यवहारं कुर्मः
अतः
अतः गृहस्य निर्माणं कस्मिंश्चित् काले अभवत् इति कृत्वा नाम गृहस्य जननम् अस्ति इति कृत्वा सः कालसङ्कोचकः सङ्कोचकं भवति खलु किन्तु आकाशः कालसङ्कोचकः भवति वा
न
किमर्थं यतोहि काल तत्र आकाश नित्यपदार्थः तस्य उत्पत्तिः निर्माणम् एतस्मिन् समये भवति न कर्तुं शक्नुमः खलु
गृहस्य निर्माणम् अहं तादृशं सङ्कोचं कर्तुं शक्नुमः किन्तु आकाशस्य निर्माणं तादृशं नास्ति तद् नित्यवस्तु एव अतः
अपि परमाणवः अपि तादृशमेव खलु
परमाणवः अपि नित्यमेव परमाणवः
परमाणवः अपि परमाणुः कालसङ्कोचकः न भवति
नित्यमपि
आकाशः अपि कालसङ्कोचकः न भवति अतः समीचीनम् अग्रे अतः
अतः जन्यस्यैव कालसङ्कोचकत्वम् असिद्धः जन्यवस्तु
सङ्कोचकत्वात्
अतः जन्यस्यैव कालसङ्कोचकत्वात् सिद्धः नियमः जन्यानामेव कालोपाधित्वम् इति
अतः नियमः कः अस्ति नियमः कः अस्ति
जन्यानामेव कालोपाधित्वम्
नाम यस्य जन्म अस्ति तस्य एव
कालोपाधित्वम् अस्ति कालस्य सङ्कुचितत्वम् अस्ति कालसङ्कोचः जन्यविषये एव भवति नित्यविषये नास्ति
कालसङ्कोचकत्वं जन्यस्य यस्य जन्म नास्ति तस्य कालसङ्कोचकत्वं नास्ति
कदाचित् काले
यस्य यः जन्यः अस्ति सः कालसङ्कोचकः अस्ति अतः तस्य कालसङ्कोचकत्वं तस्य अस्ति अथवा तस्मिन् अस्ति किन्तु यस्य जन्म नास्ति तस्य कालसङ्कोचकत्वं नास्ति अतः जन्यस्यैव एव जन्यस्य एव सीमा अस्ति जन्यस्य एव कालसङ्कोचकत्वम् इति कारणात् तस्मात् कत्वात् सिद्धः भवति. किं कः सिद्धः भवति नाम नियमः सिद्धः
भवति. नियमः सिद्धः भवति.
नियमः कः?
नियमः जन्यमाने एव कालोपाधित्वं
येषां पदार्थानां जन्म अस्ति तेषां पदार्थानाम् एव कालोपाधित्वम् अस्ति इति भवति. अस्तु, समीचीनं. हा अस्तु, इदानीं तत्र अग्रिमे परिच्छेदे नूतनविषयः अस्ति, किन्तु तदपि तत्र उद्घाटयामः अद्य. तर्हि तत्र जयलक्ष्मी भगिनी अग्रे पठति वा?
आम् महोदय, अग्रिमपरिच्छेदः खलु?
सत्यं भगिनि.
एवं भूतले घटः, चत्वरे गौः इत्यादिवत् इहापि अतिकरणत्वा अवगाही प्रत्ययः भवति. तदा अकारस्तु इदानीं घटः तदानीं पट्टः इति. अत्र च अतिकरणत्वेन ज्ञायमानः पदार्थः इतरपदार्थानां बाधात् काल एव इति स्वीक्रियते. तत्र च यतोहि अत्र अस्माभिः पठितं यत् जन्यमानानाम् एव कालोपाधित्वं भवति इति इदानीमेव उक्तम्.
अत्र भूतले अस्माभिः तत्र पूर्वस्मिन् तत्र विषयत्रयं कालस्य निरूपणावसरे सर्वाधारत्वम् अपि कालसङ्कोचकरूप उपादयः अपि कालिकसम्बन्धः इति विषयत्रयम् आसीत्. इदानीं द्वितीयविषयः नाम उपादयः कः इति, के इति उपादयः के तत्र इति विषयः एतावत् उक्तं, विषयः उक्तः अस्ति. इदानीं नूतनविषयः तत्र नाम सर्वाधारत्वम् इति विषयः उद्घाटितः अस्ति. अस्तु, अग्रे.
भूतले घटः, चत्वरे गौः इत्यादिवत् इह अपि अतिकरणत्वा अवगाही प्रत्ययः भवति. यथा भूतले घटः इति वदामः चेत् अत्र भूतलम् अधिकारः भवति खलु,
तथा
अधिकरणं भवति. चत्वरे इति वदामः, गौः इति वदामः चेत् चत्वरः अपि अधिकरणं भवति इति ज्ञानं तत्र भवति. अवगाही नाम इति
इत्युक्ते बोधः भवति, अस्माकं बोधः भवति. अवगाहः इत्युक्ते नाम
ज्ञाने.
तत्र अधिकरणत्व अवगाही इत्युक्ते नाम यस्मिन् ज्ञाने अधिकरणत्वस्य अधिकरणत्वं प्रतीयते तद् ज्ञानम् अधिकरणत्व अवगाहि. तत्र इनि प्रत्ययः अवगाहः नाम अवगाहते नाम विषयीक्रियते नाम बोधः भवति.
तादृशज्ञानं भवति अधिकरणत्व इति अधिकरणत्वं तत्र प्रतीयते
अस्ति इति. अस्मिन् विषये अधिकरणत्वमपि अन्तर्भूतः अन्तर्भूतम् अस्ति इति जानीमः.
तदाकारः तु इदानीं घटः तदानीं पटः इति. घटः पटः इति अत्र आधेयभावः अपि तत्र ज्ञायते.
कथं घटः पटः इति तत्र किमर्थं
घटः
इदानीं पटः इति वाक्ये तत्र कथं जानीमः तत्र अधिकरणत्वम् इति अस्ति इति?
भूतले घटः इति वदामः चेत्
भूतले घटः इति तत्र अधिकरणत्वम् अस्ति, किन्तु इदानीं घटः इति अस्ति चेत् तत्र
तत्तु कालः इदानीं पटः इति.
इदानीं घटः इत्युक्ते
कालस्य
अस्मिन् क्षणे घटः इति खलु. तर्हि अस्मिन् क्षणे
घटः इदानीम् अस्ति, पटः तथानीम् आसीत् इति कालस्य
विशेषः क्षणे इति तत्र विभक्ति का तत्र क्षणे इति
सप्तमी
सप्तमी सप्तमी किं सूचयति
अधिकरणम्
अधिकरणं सूचयति अतः इदानीं घटः नाम अस्मिन् क्षणे घटः इदानीं पटः तदानीं पटः इत्युक्ते तस्मिन् समये पटः तत्र अधिकरणत्वं अधिकरणत्वं सूचयति अधिकरणत्व अवगाहि ज्ञानम् अस्ति प्रत्ययः अस्ति तादृशं वाक्यम् अस्ति तादृशप्रतीतिः अत्र अस्ति किन्तु अधिकरणत्वं कुत्र अस्ति एकः एव निमिषः तदनन्तरं विरमाम अतः अत्र अधिकरणत्वेन ज्ञायमानः पदार्थः
इतरपदार्थानां बाधात् कालः एव इति स्वीक्रियते यतोहि घटः अस्ति किञ्चित् घटः आसीत् इति वदामः चेत् इतरपदार्थानां बाधात् इत्युक्ते अन्यपदार्थः नास्ति इति अनुमानं क्रियते कालः एव
अधिकरणत्वं खलु भूतले घटः इति न उक्तं खलु केवलं तत्र घटः अस्ति इति एव उक्तम् अस्मिन् क्षणे घटः इति अर्थः भूतले घटः इति न उक्तम् अतः तत्र अन्यत् किमपि अधिकरणं न दत्तम् अस्मिन् ज्ञाने अन्यत् किमपि अधिकरणं नास्ति तत्र अतः तत्र
इत्यस्मिन् प्रसङ्गे कालः एव अधिकरणरूपेण स्वीकुर्मः इति
स्वीकुर्मः अतः तत्र इदानीं घटः इति ज्ञाने कालः अधिकरणम्
अधिकरणरूपेण
अधिकरणत्वं तस्य बोधः अधिकरणत्वस्य बोधः भवति इति अस्ति अस्तु तावत्पर्यन्तं पठितवन्तः धन्यवादः भगिनी समीचीनं
धन्यवादः
अस्तु अतः तत्र केवलं तत्र सारांशत्वेन वयं किं कृतवन्तः कालस्य मापनम् अस्ति चेदेव तत्र व्यवहारः भवति कालस्य मापनं क्रियया कर्तुं शक्नुमः क्रियासमुदायः अस्ति तेन तत्र समुदायेन कालस्य मापनं विभजनं कर्तुं शक्नुमः अपि केवलं क्रियया एव न किन्तु क्रियासमुदायः येन अनुभूतः सः अपि तत्र कालसङ्कोचकः भवितुम् अर्हति उदाहरणार्थं तत्र गृहम् इति स्वीकृतम् आसीत् इदानीम् अतः तत्र यस्य जन्म भवति सः एव तत्र कालसङ्कोचकः अथवा काल उपाधिः भवितुम् अर्हति काल उपाधित्वं केवलं जन्यानाम् एव अस्ति इति वयं पठितवन्तः अग्रे तत्र कालः सर्वाधारः कथम् इति अग्रिमे सप्ताहे पठामः अस्तु तर्हि धन्यवादः नमस्कारः विरमामः
धन्यवादः महोदय